इदं कीर्तनीयस्य केशवस्य महात्मनः नाम्नं सहस्रं दिव्यानां वशिष्ठेण प्रकीर्तितम् या इदं शृणुया नित्य यश्चापि परिकीर्तयेत् नाशुभं प्राप्नुयात् किञ्चित् सोन्मूत्रेह च मानवः वेदान्त गो ब्राह्मण क्षत्रियो विजयी भवेत् वैशोधन समृद्धो यत् क्षुद्र सुखम् अवाप्नुयात् धर्मार्थी प्राप्नुयात् धर्म अर्थार्थी चार्थमाप्नुयात् कामान वाप्नुयात् कामी प्रजार्थी चाप्नुयात् प्रजा भक्तिमान्य सदोत्ताय शुचिस्तद्गतमानसः सहस्रं वासुदेवस्य नाम्नमेतत् प्रकीर्तयेत् यस प्राप्नोति विपुलं ज्ञाति प्राधान्यमेव च अचलं श्रियमाप्नोति श्रेय प्राप्नोत्तरोत्तमम् न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति भवत्यरोग दिलीमान् बलरूप गुणान्वितः रोगान्तो मुच्यते रोगान् बद्धोमुच्येत बन्धनात् भयान्मुच्येत भीतस्तु मुच्येदापन्न आपदः दुर्गान्यतीतरत्याशु पुरुष पुरुषोत्तमम् सुमन्नाम सहस्रेण नित्यं भक्ति समन्वितः वासुदेवाश्रयो मर्त्यो वासुदेव परायणः सर्व पाप विशुद्धात्मा याति ब्रह्म सनातनम् न वासुदेव भक्तानाम् अशुभं विद्यते क्वचित् जन्म मृत्युर्जरा व्याधि भयं नैवोपजायते इमं स्तवमधीयान श्रद्धा भक्ति समन्वितः युज्येतात्मा सुख शान्ति श्रीधृति स्मृति कीर्तिभिः न क्रोधो न च माश्चर्यं न लोभो न शुभामतिः भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे द्यौ स चन्द्रार्क नक्षत्र खन्दिशो भूर्महोदधिः वासुदेवस्य वीर्येण विधृतानि महात्मनाः ससुरासुरगन्धर्वं सयक्षोरगराक्षसं जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् इन्द्रियाणि मनोबुद्धि सत्त्वं तेजो बलं धृतिः वासुदेवात्मकान्याहु क्षेत्रं क्षेत्रज्ञ एव च सर्वागमानमाचार प्रथमं परिकल्पते आचार प्रभवो धर्मो धर्मस्य प्रभुरच्युतः ऋषय पितरो देवा महाभूतानि धातवः जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् योग ज्ञानं तथा सांख्यं विद्या शिल्पादि कर्म च वेद शास्त्राणि विज्ञानम् एतत् सर्वं जनार्दनात् एको विष्णुर्महद्भूतं पृथक् भूतान्यनेकशः त्रिलोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वो भुगव्ययः इमं स्तवं भगवतो विष्णुर्व्यासेन कीर्तितम् पठेद्य इच्छत् पुरुष श्रेय प्राप्तुं सुखानि च विश्वेश्वरमजं देवं जगत प्रभवाप्ययम् भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् अर्जुनोवाच पद्मपत्र विशालाक्ष पद्मनाभ सुरोत्तम भक्तानामनुरक्तानां त्रातभव जनार्दन श्रीभगवानुवाच यो मां नाम सहस्रेण स्तोतुमिच्छति पाण्डव सोऽहमेकेन श्लोकेन स्तुत एव न संशयः नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षि शिरोरुबाहवे सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियोगधारिणे नमः नमः कमलनाभाय नमस्ते जलशायिने नमस्ते केशवानन्द वासुदेव नमस्तुते वासनाद् वासुदेवस्य वासितं भुवनत्रयं सर्वभूतानि वासोऽसि वासुदेवा नमस्तुते। नमो ब्रह्मण्यदेवाय गोब्रह्मणहिताय च जगद्धिताय कृष्णाय गोविन्दाय नमो नमः। आकाशात् पतितं तोयं यथा गच्छति सागरम् सर्वदेवा नमस्कारः केशवं प्रति गच्छति। एष निष्कण्टक पन्था यत्र सम्पूज्यते हरिः उपाथं तं विजानीयत् गोविन्द रहितागमम्। सर्ववेदेषु यत्पुण्यं सर्वतीर्थेषु यत्फलं तत्फलं समवाप्नोति स्तुत्वा देवं जनार्दनम्। यो न पठते नित्यं त्रिकालं केशवालये द्विकालमेककालं वा क्रीडन् सर्वं व्यपोहति। दह्यन्तेरिपवस्तस्य सौम्या सर्वे सदाग्रहाः विलीयन्ते च पापानि स्तवेहस्मिन् प्रकीर्तिते। येन ध्याता श्रुतो येन येनायं पठ्यते स्तवः दत्तानि सर्वदानानि सुरा सर्वे समार्चिताः। इह लोके परे वापि न भयं विद्यते क्वचित् नाम्नां सहस्रं योधीते द्वादश्यां मम सन्निधौ। सनिदर्हति पापानि कल्पकोटिशतानि च अश्वत्थ सन्निधौ पार्थ तुलसी सन्निधौ तथा। पठेन्नाम सहस्रं तु गवां कोटिफलं लभेत् शिवालये पठेन्नित्यं तुलसी वनसंस्थितः। नरो मुक्तिमवाप्नोति चक्रपाणिर्वचो यथा ब्रह्महत्यादिकं घोरं सर्वपापं विनश्यति। विलयं यन्ति पापानि चन्यपापस्य का कथा सर्वपापाभिनिर्मुक्तो विष्णुलोकं स गच्छति। इति श्रीमन्महाभारते शतसहस्रं संहितायां वैयासिक्यं मानुशासनिक पर्वणि दानधर्मे भीष्म युधिष्ठिर संवादे श्री विष्णु दिव्य सहस्र नाम स्तोत्रं संपूर्णम्।
श्रुति दोलित मकर कुंडलक
पटिवेष्टित पीत पटासुदटं भज कृष्णनिधिं व्रज राजसुतम् नील सरोज दृशं भज कृष्ण निधिं व्रज राजसुतम् ब्रज राजसुतम् भज कृष्ण निधिं ब्रज राजसुतम्।